तत्र उष्ण तीक्ष्ण सूक्ष्म व्यवायी विगाशीनि औषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूल अणुस्रोतोभ्यः केवलं शरीरगतं दोषसंघातं आग्नेयत्वात् विष्यन्तेन्ति तैष्ण्यात् विच्छिन्दन्ति स विच्छिन्नः परिप्लवन् स्नेहभाविदे काये स्नेहाक्तभाजनस्थमिव क्षौद्रमसज्जन् अणुप्रवणभावात् आमाशयमागम्य उदानप्रणुन्नो अग्निवायुवात्मकत्वात् ऊर्ध्वभागप्रभावात् औषधस्य ऊर्ध्वमुक्षिप्यते सलिलपृथिव्यात्मकत्वात् अधोभागप्रभावात् च औषधस्य अधः प्रवर्तते उभयतश्च उभयगुणत्वात् इति लक्षणोद्देशः।